गुरु ब्रह्मा गुरुविष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणं तदनन्तरं तत्र मनसः लक्षणं च तर्हि तत्र आत्मनः लक्षणविषये वयं बहु किमपि अतीतवन्तः तत्र आत्मा तत्र द्विविधः अस्ति तत्र द्विविधः तत्र प्रेमलता भगिनी आत्मा द्विविधः द्विविधः नाम किम्
अस्तु महोदय द्विविधः नाम जीवात्मा परमात्मा इति
हा जीवात्मा परमात्मा परमात्मा इति ईश्वरः जीवात्मा प्रत्येकजीवस्य आत्मा शरीरस्य शरीरभेदेन तत्र जीवात्माः अपि भिद्यन्ते समीचीनम् इदानीं तत्र विमला भगिनी तत्र परमात्मना विषये तत्र प्रत्यक्षज्ञानं वा अनुमानज्ञानं वा परमात्मनः विषये
अनुमानेन एव
तर्हि तत्र अनुमानेन यः कोऽपि पदार्थः निरूप्यते तदा तत्र लाघवार्थं किं स्वीकृतं भवति तत्र
एकः एव इति
एकः अपि नित्यः
एकः नित्यः
इति इदानीं तादृश तत्र परमात्मनः विषये तादृशी स्थितिः अस्ति जीवात्मनः विषये तत्र एकत्वम् इति स्वीकरणीयं वा
न तत्र भिन्नत्वमस्ति बहवः शरीराः सन्ति प्रत्येकं शरीरे एकः आत्मा अस्ति इत्यनेन आत्मनः बहवः
तत्र जीवात्मानः बहवः सन्ति इति स्वीकर्तव्यं भवति अस्माभिः समीचीनं भगिनि अग्रे तर्हि तत्र मृणालिनी भगिनी तत्र परमात्मन विषये तत्र परमात्मा विभुः अस्ति वा किमस्ति तस्य परिमाणं कीदृशम्
आं परमात्मा
विभुः अस्ति वा अथवा तत्र तस्य परिमाणं कीदृशम्
आं
विभुः अस्ति अतः तत्र परमात्मा एकः अस्ति नित्यः अस्ति विभुः च अस्ति इदानीं तत्र जीवात्मनः विषये तत्र किं स्वीकृतवन्तः तत्र जीवात्मा तत्र तस्य विषये तत्र किं भवति तत्र सः अपि विभुः वा अथवा न
जीवात्मा अपि
नित्यः अथवा अनित्यः जीवात्मा
नित्यः एव
समीचीनं अस्तु समीचीनं तर्हि अग्रे तत्र केवलं तत्र सर्वेषां तत्र पुनस्मरणं भवेत् इति कृत्वा अहं सर्वान् पृच्छामि तावदेव अस्तु अग्रे तत्र इदानीं तत्र गतवर्गे वयं किञ्चित् तत्र कृतवन्तः नाम तत्र जीवात्मा नित्यः अथवा अनित्यः इति तत्र अनित्यः चेत् का हानिः इति तर्हि तत्र शोभभगिनी तत्र यदि जीवात्मा अनित्यः अस्ति चेत् तत्र जीवात्मनि तत्र गुणाः सन्ति खलु जीवात्मनि धर्मः अधर्मः इति गुणद्वयं भवति खलु
सत्यं
तर्हि तत्र जीवात्मनः नाशः भवति चेत् तत्र किं गुणौ तिष्ठति
तत्र जीवात्मनः नाशः भवति इति स्वीकृतं चेत् दोषः भवति एकः दोषः भवति तत्र तस्य नाशः भवति चेत् तत्र पूर्वजन्मनि यत् पापं पुण्यं सम्पादितं तस्य अपि नाशः भवति किन्तु तादृशं नास्ति इति वयं जानीमः
अतः तत्र तर्हि सः प्रथमविधदोषः द्वितीयविधदोषः अस्ति इदानीम् अस्मिन् जन्मनि किं भवति
अस्मिन् जन्मनि यत् सुखं दुःखं वा अनुभवति तस्य कारणमेव नास्ति केन कारणेन अस्मिन् जन्मे सुखं वा दुःखं वा तेन प्राप्तम् इत्यस्य प्रश्नस्य उत्तरमेव न प्राप्तुं शक्नुमः
न तत्र उत्तरं न दातुं शक्नुमः समीचीनम् अतः तत्र सुखस्य अथवा दुःखस्य कारणं किम् इति प्रश्ने सति तत्र किं तत्र समाधानं न भवति समाधानं नास्ति अतः तत्र पुण्यस्य पापस्य अपि तत्र हानिः तत्र भवति जीवात्मनः नाशे तर्हि तत्र तद् भवति चेत् तत्र वयं स्वीकृतवन्तः तत्र नाम तत्र धर्मः नाम पुण्यः अपि अधर्मः इति गुणाः सन्ति तेषां नाशः भवति चेत् तेषां कार्यं नाम धर्मस्य धर्मेण तत्र धर्मकार्येण अग्रे तत्र जीवे अथवा अग्रिमजन्मनि वा तस्मिन् जन्मनि वा तत्र सुखं भवति अपि तत्र पापेन तत्र दुःखं भवति इति तत्र कार्यकारणभावः इति स्वीकृतवन्तः तर्हि तद् तत्र कारणं न भवति अतः तत्र वयं नाशः भवति चेत् तत्र कथं दुःखम् उत्पद्यते सुखम् उत्पद्यते इति तत्र समाधानं न दातुं शक्नुमः समीचीनम् अतः तत्र जीवात्मा नित्यः इति स्वीकर्तव्यः भवति अस्माभिः हा समीचीनं भगिनि हा अग्रे तर्हि तत्र उषा भगिनी तर्हि तत्र जीवात्मा तत्र यदि नित्यः अस्ति चेत् तस्य परिमाणं तत्र मध्यमपरिमाणं भवितुम् अर्हति वा
नित्यः अस्ति चेत् मध्यपरिमाणं नास्ति महोदय परममहत् परिमाणत्वमेव भवति
अथवा तत्र अनुपरिमाणमपि
अणुपरिमाणमपि
यतोहि परमाणवः अपि तत्र नित्यः इति वयं तत्र न्यायशास्त्रे तत्र अङ्गीकारः अस्ति अतः तत्र परममहत्परिमाणम् अथवा अनुपरिमाणम् किन्तु मध्यमपरिमाणं
नास्ति
इति समीचीनं हा अस्तु अग्रे तर्हि तत्र हा योगेन्द्र महोदय तर्हि तत्र अणुपरिमाणं किमर्थं तत्र जीवात्मनः अणुपरिमाणं किमर्थं नास्ति योगेन्द्रमहोदय अस्तु अथवा तत्र अशोकमहोदय किञ्चित् वदति वा
अहं वदामि
वदतु महोदय
शरीरस्य कुत्रापि वेदना भवति तत्र सा वेदना सर्वत्र तस्य वेदनायाः अनुभवः सर्वत्र भवति अतः एकस्मिन् एव स्थले न भवति परन्तु
नाम तत्र यदि जीवात्मा केवलम् अणुपरिमाणम् आसीत् चेत् तत्र शरीरे एकस्मिन् भागे एव भवेत् शरीरस्य एकस्मिन् भागे एव भवेत् नाम तत्र शिरसि एव भवेत् इति चिन्तयामश्चेत् तदा तत्र यदि पादवेदना भवति अथवा हस्तवेदना भवति तत्र न अनुभूयते वेदना यतोहि जीवात्मा शिरसि एव अस्ति तत्र हस्ते नास्ति पादे नास्ति अथ तत्र सा वेदना तां वेदनां न अनुभवामः इति भवति किन्तु तत्र पादे वा हस्ते वा शिरसि वा यत्र कुत्रापि शरीरे तत्र वेदना भवति चेत् तस्य अनुभवः अस्ति एव तर्हि तत्र परमाणु नाम अणुपरिमाणं जीवात्मनः न भवेत् तर्हि तत्र यदि तत्र अणुपरिमाणमपि नास्ति अपि मध्यमपरिमाणमपि नास्ति चेत् तर्हि तत्र किं भवेत् इत्युक्ते केवलं
महत्परिमाणं
तर्हि परममहत्परिमाणं नाम विभूद्रव्यम् इति स्वीकर्तव्यं भवति अतः तत्र जीवात्मा अपि तत्र विभुः अस्ति अपि नित्यः अस्ति अनेकाः किन्तु एकः नास्ति तत्र अनेकाः सन्ति सर्वे अपि तत्र विभु पदार्थः नाम तत्र प्रत्येक जीवात्मा विभु अस्ति किन्तु तत्र शरीरभेदम् अस्ति शरीरभेदेन तत्र भिद्यते प्रत्येकस्य जीवात्मनः शरीरम् अस्ति अतः तत्र शरीरभेदेन तत्र जीवात्मानः अनेकाः इति वयं अवगच्छामः इति अस्ति. अतः तत्र एतावत् तत्र वयं तत्र गतवर्गे तत्र यत् आत्मनः विषये पठितवन्तः तस्य पुनस्मरणं जातम् इति मन्ये. इदानीं तत्र मनसः निरूपणं भवति. तत्र यत् लक्षणवाक्यम् अत्र अस्ति, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः इति. किन्तु तत्र एतस्य पठनात् प्राक् तत्र स्वरूपमहोदयस्य करपत्रम् अस्ति, तत्र लिङ्क् तत्र ईमेल् माध्यमेन तत्र ईमेल् मध्ये अस्ति. तत्र एतत् करपत्रं पठतु इति अपि, तत्र गतवर्गे अपि एतत् करपत्रं यदि समयः लब्धः पठामः इति तत्र लिङ्क् प्रेषितम् आसीत्, तत्रापि द्रष्टुं शक्नुवन्ति, अत्रापि अस्ति. अथ तत्र इदानीं तत्र आत्मा मनः च इति करपत्रं पठामः. अस्मिन्नेव विषये तत्र विस्तृतरूपेण चर्चा भवति. तदनन्तरं तत्र करपत्रस्य पठनानन्तरं पुनः अत्र आरभ्य मनोनिरूपणम् इति आरभ्य पठामः, सुलभेन तत्र अवगन्तुं शक्नुमः अत्र. अस्तु तर्हि आरम्भं कुर्मः.
I want to read early because I may have to drop out later. Okay?
Astu bhagini, bhavati eva patatu tarhi tarhi.
Atma manaha cha? Astu. Atma. Pipilikadi gajap pariyantam. Pariyantam. Takara extra. Pariyantam sarveshyam ekaikam atma. प्रत्येकं च जीवात्मा विभुः, किन्तु नानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. जीवात्मा सर्वत्र, परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति. इदानीं अग्रे गच्छामि.
अस्तु अस्तु, तर्हि तद् तदेव करोतु भगिनि. तावत् तावत् पठतु.
तावत्तु अत्र पिपीलिकादि गज पर्यन्तं, तत्तु सर्वे इति वदति. अणु पिपीलिका तु
लघुजीवः,
अल्प अल्पप्राणः, अल्प
प्राणी, अल्पप्राणी अथवा लघुजीवः, लघुजीवः.
गजः तु उग्रः, ऐ मीन् उग्रः न,
बृहान् अस्ति,
बृहत् अस्ति,
बृहत् इति न बृहान्, पुल्लिङ्गे बृहान्
बृहान् अस्ति. सर्वेषाम् एकैकम् आत्मा,
नाम तत्र जीव अनेकविध जीवाः सन्ति. तत्र लघु वा बृहान् वा प्रत्येकस्य जीवस्य एकैकम् आत्मा अस्ति.
अस्ति अत्र अस्तु. प्रत्येकं च जीवात्मा विभुः, किन्तु नानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. अस्तु, तत् एक वाक्यः अस्ति तदपि है न.
वदतु, जीवात्मा
जीवात्मा विभुः, विभुः तु आकाशतत्त्व न विभुः.
न न न, विभुः इति आकाशम् आकाशः नास्ति. विभुः इत्युक्ते
अर्थ एलिमेण्ट्.
न न न न न न न, विभुः इत्युक्ते किं न स्मरति वा? तत्र नाम सर्वमूर्तद्रव्यसंयोगत्वं, मूर्तद्रव्यम् इत्युक्ते किं? मूर्तद्रव्यं यस्मिन् क्रिया भवति,
यस्मिन् क्रिया भवति तद् मूर्तद्रव्यम्
अपि. सर्वाणि मूर्तद्रव्याणि यानि सन्ति तयोः सम्बन्धः अस्ति, संयोगसम्बन्धः अस्ति चेत् तत्र विभुद्रव्यम् इति नाम. आकाशः सर्वाणि मूर्तद्रव्याणि यानि सन्ति तेषां तत्र अपि तत्र आकाशः तत्र सम्बन्धः संयोगसम्बन्धः अस्ति अतः तत्र आकाशः विभुद्रव्यम् इति उच्यते
जीवात्मा विभुः किन्तु नाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति ज्ञानाश्रयत्वं तत् तद् ज्ञानं तु किञ्चित् मया ज्ञानं ज्ञानाश्रयः किञ्चित् अस्ति त्वया
नाम तत्र समीचीनं नाम यत् भवत्याः ज्ञानं नाम भवत्याः तत्र ज्ञानं तत्र भवत्याः जीवात्मनि अस्ति किन्तु तत्र यतोहि ज्ञानं बुद्धिः तत्र गुणः अस्ति आत्मनः गुणः अस्ति किन्तु तत्र आत्मनि अस्ति अपि तत्र केवलं तत्र शरीरे एव तत्र जीवात्मनः तत्र चिन्तयामः तत्र शरीरः एकः भागः इति चिन्तयामः केवलं तत्र एव भवति शरीरे एव भवति ज्ञानस्य आश्रयः शरीरः इति शरीरं चिन्तयितुं शक्नुमः
जीवात्मा सर्वत्र अस्ति परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति तदेव तद्
जीवात्मा विभुः अस्ति किन्तु जीवात्मनः शरीर प्रत्येकजीवात्मनः एकं शरीरम् अस्ति तत्र शरीरे एव तत्र तत्र तस्मिन् देशे एव तत्र ज्ञानम् उत्पद्यते इति चिन्तनम् इति अस्ति भगिनि अग्रेपि अग्रिमवाक्यमपि पठतु तदनन्तरं तत्र अन्य कोऽपि पठेत्
अन्यत्र सर्वत्र जीवात्मा अस्ति एव परन्तु तस्मिन् ज्ञानं न उत्पद्यते अन्यत्र इति वदनेन कोऽपि चेर्
न अन्यत्र नाम शरीरं यत्र अस्ति शरीरं विहाय इत्युक्ते अन्यत्र
तदेव
अवगच्छति खलु नाम अन्यत्र नाम शरीरं विहाय यत्र अन्यत्र यत् कुत्र अस्ति सर्वत्र
नास्ति
सर्वत्र जीवात्मा अस्ति यतोहि जीवात्मा विभुः अस्ति किन्तु तत्र ज्ञानं ज्ञानं न उत्पद्यते तत्र ज्ञानं केवलं जीवात्मनः एकभागे यद्यपि तत्र जीवात्मनः भागः नास्ति यतोहि विभुद्रव्यमस्ति नित्यमस्ति अवयवाः न सन्ति किन्तु तत्र यथा वयं कालस्य उपाधिनिरूपणं कृतवन्तः खलु नाम कालस्य भागः कृतवन्तः खलु कल्पितवन्तः तथैव तत्र जीवात्मनः तत्र भागः शरीरस्थं भागः इति शरीरस्थः भागः इति चिन्तयितुं शक्नुमः अतः तत्र जीवात्मा सर्वत्र अस्ति केवलं यत्र शरीरः अस्ति तत्र एव तत्र ज्ञानम् उत्पद्यते
अस्तु
हा इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे अन्य कोऽपि पठेत्
धन्यवादः
भगिनि समीचीनमस्ति हा अस्तु अग्रे अशोक महोदय अग्रे
अस्तु महोदय यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह तत्रापि ज्ञानं न उत्पद्यते एवं च द्वौ आत्मानौ उभौ अपि सर्वव्यापिनौ उभयोः अपि संयोगः सर्वस्मिन् शरीरे परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह तत्र तस्मिन् आत्मनि ज्ञानं न उत्पद्यते एक आत्मः अस्ति जीवात्मः अस्ति तस्य संयोगसम्बन्धः
सर्वैः शरीरैः
सह किन्तु अन्यशरीरे यद्यपि संयोगसम्बन्धः अस्ति तदपि ज्ञानं न भवति
ज्ञानं न भवति समीचीनं महोदय हा नाम तत्र वयं चिन्तयामः तत्र केवलं तत्र प्रदर्शनार्थम् एतत् कुर्मः नाम तत्र एषः तत्र जीवात्मा इति चिन्तयामः अपि तत्र एतत् तस्य शरीरम् इति चिन्तयामः एतत् अन्यशरीरम् अस्ति अपि तत्र एतत् अन्यजीवात्मा अस्ति तर्हि तत्र किम् उच्यते एतावत् तत्र नाम प्रत्येक जीवात्मनः संयोगसम्बन्धः तत्र एतत् शरीरम् एतस्य जीवात्मनः एतत् शरीरम् एतत् जीवात्मनः किन्तु एषः जीवात्मा तत्र तस्य सर्वैः शरीरैः संयोगसम्बन्धः अस्ति एतस्य अपि अत्र संयोगसम्बन्धः अस्ति किन्तु अत्र एतस्य आत्मनः एतदेव शरीरम् एतस्य आत्मनः एतदेव शरीरं केवलम् अत्र एव ज्ञानम् उत्पद्यते अपि अत्र एव एतस्य आत्मनः अत्र एव ज्ञानम् एतस्य आत्मनः अत्र एव ज्ञानम् उत्पद्यते अन्यत्र न उत्पद्यते इति यद्यपि सर्वत्र तत्र जीवात्मा सर्वत्र अस्ति सर्वैः तत्र शरीरैः अपि मूर्तद्रव्यैः तस्य संयोगः वर्तते
यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह तत्रापि ज्ञानं न उत्पद्यते द्वितीयः आत्मः अपि प्रथम प्रथमजीवात्मस्य जीवात्मनः शरीरस्य आत्मनः शरीरस्य संयोगः भवति किन्तु द्वितीय आत्मनः एव प्रथमशरीरस्य शरीरे ज्ञानं न उत्पद्यते तस्य शरीरे एव
उत्पद्यते
एवं च द्वौ आत्मानौ उभौ अपि सर्वव्यापिनौ उभयोः अपि संयोगः सर्वस्मिन् शरीरे परन्तु ज्ञानम् एकस्मिन् आत्मने उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः उभौ आत्मनौ सर्वव्यापिनौ यद्यपि विभुः अतः सर्वस्मिन् शरीरे संयोगसम्बन्धः भवति किन्तु ज्ञानं तत्तद् शरीरस्य एव भवति
हा इति अस्ति महोदय इति अस्ति समीचीनम् अस्ति हा तर्हि तत्र यथा वयं पूर्वमपि निर्मितवन्तः किन्तु तत्र प्रत्येकस्य तत्र विशिष्टसंयोगः इति चिन्तयामः तत्र स्वशरीरेण विशिष्टसंयोगः स्वशरीरेण विशिष्टसंयोगः अपि तत्र अन्यत्र सर्वत्र तत्र साधारणसंयोगः यत्र विशिष्टसंयोगः अस्ति तत्र एव तत्र ज्ञानम् उत्पद्यते अन्यत्र न उत्पद्यते नाम तत्र एषः आत्मा अत्रापि अस्ति 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 किन्तु केवलम् अस्य आत्मनः ज्ञानम् अत्रैव उत्पद्यते अस्य आत्मनः ज्ञानम् अत्रैव उत्पद्यते अस्य आत्मनः ज्ञानम् अत्रैव उत्पद्यते अन्यत्र न उत्पद्यते यद्यपि ते सर्वे तत्र सर्वव्यापिनः अपि तत्र विभु द्रव्याणि इति अस्तु समीचीनं महोदय धन्यवादः अस्तु अग्रे तर्हि तत्र हा विमला भगिनी प्रश्नः
महोदय न अवगतम् यतोहि एकैकस्मिन् शरीरे एकः एव आत्मा अस्ति यदि स संयोगसम्बन्धेन अस्ति तर्हि अन्यशरीरेण तस्य कथं वा पुनः संयोगसम्बन्धः भवति
तर्हि विभुद्रव्यम् इति उक्तवन्तः खलु भगिनी नाम आकाशः सर्वमूर्तद्रव्यं तत्र यद्यत् मूर्तद्रव्यमस्ति तेन सह आकाशस्य संयोगसम्बन्धः वर्तते.
आकाशस्य तु अवगन्तुं कष्टं नास्ति महोदय, परन्तु जीवः तु एककस्मिन् शरीरे एव अस्ति. अपि च तस्य संयोगः जलेन तेजसि वायु आकाशे एतेषां सह तस्य कथं वा संयोगः भवति?
यतोहि समीचीन प्रश्नः भगिनि, किन्तु तत्र समाधानं किम् इत्युक्ते नाम तत्र जीवात्मनः परिमाणं किम् इति यदि चिन्तयामः
बृहत् इति,
तत्र जीवात्मनः परिमाणम् अनुपरिमाणं नास्ति खलु.
आम् आम्
अपि मध्यमपरिमाणमपि नास्ति,
तदपि नास्ति. आम्
तर्हि एकमेव तत्र भवितुम् अर्हति नाम परममहत् परिमाणम्. परममहत् परिमाणम् इत्युक्ते तत्र सर्वव्यापी खलु. तर्हि
महोदय
अतः तत्र प्रत्येकस्य आत्मनः एकं शरीरमिति अस्ति, तत्र आत्मा अपि तत्र जीवात्मा अपि तस्य शरीरम् इति तत्र विशिष्टसम्बन्धः वर्तते. किन्तु सः जीवात्मा सर्वैः शरीरैः तस्य संयोगसम्बन्धः वर्तते, केवलम् अन्यैः शरीरैः न, किन्तु सर्वैः मूर्तद्रव्यैः सह तस्य संयोगसम्बन्धः वर्तते.
इत्युक्ते तत्र निकटे भवेत् किं
निकटे इति निकटे अपि अतः तत्र जीवात्मनः शरीरम् इति चिन्तनं तत्र निकटे इति वक्तुं वयं किं चिन्तयामः, तत्र तस्य शरीरे तत्र शरीरस्य समीपे एव तत्र ज्ञानम् उत्पद्यते. अतः एव तत्र अत्र उक्तं नाम तस्मिन् तत्र तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति.
महोदय अत्र ईश्वरः अपि तस्य अपि परिमाणं महत्, सः अपि विभुः, जीवात्मा अपि तथैव एव, तर्हि एतेषां मध्ये भेदः बहु अल्पः खलु?
सत्यं नाम तत्र विभुद्रव्यम् इत्युक्ते केवलं सर्वमूर्तद्रव्यसंयोगः नाम तत्र यथा आकाशः अस्ति अपि कालः अस्ति, कालः अपि विभुद्रव्यम्, आकाशः अपि विभुद्रव्यम्, परमात्मा अपि विभुद्रव्यम्.
अस्तु महोदय,
अतः तत्र दिक् अपि विभुद्रव्यम्.
अस्तु महोदय, धन्यवादः.
अतः तत्र एतत् तत्र सरलम् इति न वदामि, किन्तु तत्र प्रत्येकस्य जीवात्मनः तत्र शरीरम् इति तत्र अतः एव विशिष्टसम्बन्धः इति चिन्तयतु. यद्यपि जीवात्मनः सर्वैः शरीरैः संयोगसम्बन्धः वर्तते, किन्तु जीवात्मनः चिन्तनमस्ति एतत् शरीरं मम शरीरम् इति चिन्तनमस्ति तस्य इति. केवलं तत्र एव वसति, तत्र एव तत्र ज्ञानम् उत्पद्यते इति. यद्यपि जीवात्मनः तत्र अवयवाः न सन्ति, तस्य एषः भागः इति न वक्तुं शक्नुमः, यथा आकाशस्य भागः नास्ति इति कल्पितवन्तः खलु. नाम आकाशस्य अवयवाः सन्ति चेत् आकाशः अनित्यः भवेत्.
किञ्चित् भ्रमात्मकम्
आचार्य, किञ्चित्
तत्र स्पीकर् फोन् मास्तु भगिनि, वदतु.
एतावता भाति यत् सर्वशरीरसंयोगः अस्ति चेत् मम आत्मा मम शरीरं त्यक्त्वा अन्यशरीरं प्रविशति, तथैव नास्ति. तत् नास्ति,
तत् नास्ति, तद् नास्ति. अतः तत्र अन्य कोऽपि नियमः अस्ति नाम तत्र एषः आत्मा जीवात्मा तस्य एतदेव शरीरम् इति.
अस्तु, आं महोदय, धन्यवादः.
इति अस्ति.
आम् आचार्य, पूर्वं वयं दृष्टवन्तः
सर्वे आत्मा तु नवद्रव्येषु एकं द्रव्यमस्ति. सर्वे गुणाः द्रव्येषु द्रव्ये एव तिष्ठन्ति खलु. तर्हि परन्तु आत्मनः ज्ञानम् इति गुणः तस्य यत् विभुत्वम् अस्ति सर्वत्र न तिष्ठति. केवलं तस्य संयोगः स्वस्य जीवे स्वस्य शरीरे यथा भवति तत्रैव तस्य ज्ञानस्य साक्षात्कारः अस्ति इति
अस्ति सत्यं.
नाम किम् आत्मनः परिमाणं यदि मध्यमपरिमाणं स्वीकुर्मः तर्हि कः दोषः
तत्र? तर्हि सः अनित्यः भवति खलु.
मध्यम यदि स्वीकुर्मः तर्हि अनित्यः भवेत्. अस्तु अस्तु
इति एव तर्हि अतः तत्र परममत् परिमाणं भवेत् तर्हि विभुद्रव्यम् अस्ति जीवात्मा. किन्तु तत्र नित्यः अस्ति तस्य अवयवाः अपि न सन्ति अतः तत्र शरीरस्य शरीरस्थभागः इति शरीरस्य समीपभागः इति तत्र कल्पना एव. यतोहि तत्र यत् ज्ञानं मम आत्मनि भवति तद् ज्ञानं भवत्याः मन आत्मनि न भवति. भवत्याः आत्मनि यत् ज्ञानं भवति तद् मम आत्मनि न भवति खलु.
तदेव मया उक्तं न अग्रे.
हा हा सत्यं सत्यम्. अतः किं भवति तर्हि तत्र ज्ञानं शरीरस्थभागे एव तत्र ज्ञानम् उत्पद्यते इति. अथवा तत्र ज्ञानं सर्वत्र भवति किन्तु केवलं नाम तस्य तत्र भवति इति अनेकविधचिन्तनं कर्तुं शक्नुमः. तत्र ज्ञानं जीवात्मनि सर्वत्र वर्तते किन्तु तस्य प्रत्यक्षं केवलं तत्र यत् शरीरं तत्र शरीरे तत्र मनः अपि तत्र मनः अस्ति अपि तत्र सर्वम् अस्ति केवलं तत्र एव तस्य ज्ञानस्य प्रत्यक्षं भवति. अन्यत्र ज्ञानं भवेत् किन्तु तस्य प्रत्यक्षं न भवेत् खलु. यथा तत्र इदानीं तत्र आधुनिककाले तत्र वयम् एतत् वक्तुं शक्नुमः खलु. नाम तत्र किं तत्र सिग्नल् सर्वत्र भवति किन्तु तत्र केवलं तत्र या दूरवाण्याः तत्र सङ्ख्या भवेत् केवलं सा दूरवाणी एव तत्र तस्य ग्रहणं कृत्वा तत्र कनेक्षन् भवति खलु. वृणले भगिनि.
आम् 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 तथैव
तथैव तत्र ज्ञानं तत्र जीवात्मनि सर्वत्र भवति इति अपि चिन्तयितुं शक्नुमः. एतदेव तत्र न्यायशास्त्रचिन्तनम् इति न वदामि केवलं तत्र केवलम् अवगमनार्थम् एतादृशचिन्तनं कर्तुं शक्नुमः. तत् सर्वत्र भवति किन्तु जीवात्मनः प्रत्येकजीवात्मनः एकं शरीरमिति अस्ति केवलं तत्र एव तस्य ज्ञानस्य प्रत्यक्षं भवति अन्यत्र तस्य प्रत्यक्षं न भवति इति चिन्तयितुं शक्नुमः खलु.
आम् आम् तर्हि तथैव अन्ये गुणाः अपि वा?
हा
पश्यामः
तथैव भवेत्
खलु.
समीचीनम् अस्तु.
महोदय महोदय तत्र करपत्रे अग्रे आयास्यति जीवात्मनः परमाणुरूपम् इति अस्ति इति कृत्वा अनुरूपम् अस्ति. महत्परिमाणम् इति नास्ति परममहत्परिमाणम् इति नास्ति केवलम् अणुरूपम् अस्ति परमाणुवत् इति अस्ति लघु
कृत्वा
जीवात्मनः जीवात्मनः परमात्मनः तु परममहत्परिमाणम् अस्ति किन्तु जीवात्मनः तु अणुपरिमाणम् अस्ति. अग्रे अग्रे दत्तमस्ति करपत्रे अधोभागे
इति वा महोदय.
आम्
किन्तु तत्र विद्याधर्यं तत्र जीवात्मा तत्र विभु इति एव दत्तमस्ति खलु.
विभु अस्ति विभु अस्ति किन्तु परमाणु नित्यं च इति अस्ति.
अस्तु 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 महोदय धन्यवादः. अतः तत्र एतावत् मया दोषाय उक्तम् इति क्षम्यतां सर्वे
तर्हि तत्र प्रश्नः उदेति न का भेदः जीवात्मना परमात्मनोः
हा हा तत्र मम मनसि तु तत्र स्थिरम् आसीत् तत्र विभुः इत्युक्ते तत्र परमपरिमाणमेव भवेत् इति
तदा
तत्र अणुपरिमाणमपि नास्ति इति महोदय किन्तु तत्र
अनुपरिमाणं अद् लक्षण लक्षण वाक्ये किं दत्तमस्ति परमाणु परमाणु नित्यं च इति अस्ति न
एकनिमिषं महोदय
अत्र
समीचीनम्
अत्र अत एव अधोभगे सुखादि उपलब्धिसाधनं सुखादि उपलब्धिसाधनम् इन्द्रियं मनः तच्च प्रत्यात्मनिरतत्वाद् अनन्तं परमाणुरूपं नित्यं च इति अस्ति
महोदय मनः मनः परमाणुरूपम् अस्ति महोदय किन्तु आत्मा तु तत्र विभुः अस्ति महोदय खलु मनः
शरीरं
मनः तु परमाणुरूपं महोदय तत्तु
मनः परमाणुरूपं सन्
हा मनः परमाणुरूपं तद् तद् समीचीनं किन्तु तत्र जीवात्मा तु तत्र विभुः एव तत्र
विभुत्वं भिन्नमस्ति परिमाणं भिन्नमस्ति न विभुत्वम् इति सर्वयोगसंयोगित्वम् अस्ति इति
सर्वमूर्तद्रव्यसंयोगित्वं
सर्वमूर्तद्रव्यस्य संयोगित्वम् इति विभुत्वं किन्तु परमाणु
सत्यं सत्यं हा तत् तत्तु समीचीनं किन्तु समीचीनं महोदय तत्र विभुत्वम् अपि परिमाणं प्रायश तयोः मध्ये सम्बन्धः मम मनसि आसीत् किन्तु तत् सम्यक् नास्ति समीचीनं महोदय किन्तु तत्र पूर्वं तत्र उक्तमस्ति नाम तत्र अणुपरिमाणं तत्र जीवात्मनः न भवेत् इति अत्र एव अस्ति खलु महोदय तत्र मनोरूपणम् इति प्राक् अत्र एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमानवेदना अनुभूयेत इति
सम्यक् सम्यक् क्षम्यतां महोदय
अतः तत्र
तत्र समीचीनं
अत्र एव अतः अस्य वाक्यस्य पठनेनैव प्रायशः तत्र महोदय तत्र अतः तस्य विभुपरिमाण स्वीकार्यम् इति अतः एव तत्र मनसि आसीत् अस्तु तर्हि तत्र विभुपरिमाणं नाम तत्र परममहित् महत् परिमाणं तर्हि तत्र विभु अपि परममहत् परिमाणं समानम् इति
तत् तदनन्तरं प्रश्नः उदेति यदि उभयो विभुः अस्ति नित्यमस्ति जीवात्मनः परमात्मनः अपि महत्परिमाणम् अस्ति चेत् का भेदः हा
हा हा सत्यं महोदय सत्यं हा तर्हि तत्र अनेकाः सन्ति
इति भवेत् यदि तेषां महत्परिमाणम् अस्ति जीवात्मनः परमात्मनः परमात्मनः तर्हि परमात्मनः ज्ञानं सर्वत्र वर्तते न तु केवलं तस्य शरीरं नास्ति खलु
तस्य शरीरं नास्ति अपि
तत्र
अशोक महोदय वदति तत्र जीवात्मा अल्पज्ञः अस्ति किन्तु तत्र परमात्मा तु सर्वज्ञः अस्ति
तस्य ज्ञानं शरीर इति दिशि एव न भवेत् सर्वत्र तस्य ज्ञानं भवेत् परमात्मनः गुणः ज्ञानं सर्वत्र भवेत् केवलम् आत्मनः जीवात्मनः यत् ज्ञानं वर्तते तत् केवलं शरीरसंयोगं यत्र भवति तत्र एव
स्वशरीरयोगम् अस्ति अतः तत्र जीवात्मनः तत्र परमं महत् परिमाणम् इति एव स्वीकार्यम् अस्ति अपि तत्र अवयवः न सन्ति किन्तु तत्र तस्य एकः भागः तत्र शरीरस्य समीपे अस्ति इति चिन्तनं भवेत् अथवा तत्र केवलं तत्रैव तस्य शरीरेण एव तत्र तत्र एव तस्य प्रत्यक्षं ज्ञानस्य प्रत्यक्षं भवति इति चिन्तनं भवेत् अस्तु धन्यवादः अरविन्द महोदय तत्र इदानीं तत्र स्पष्टता अस्ति मम मनसि अपि तत्र विभुत्वमपि परममहत्परिमाणं तत्र मनसि क्लेशः आसीत् अस्तु समीचीनं धन्यवादः
महोदय पृष्ठसङ्ख्या 53 कृते अपि वयं पठितवन्तः महोदय परममहत् परिमाणम् आकाशः कालः दिक् जीवाः ईश्वरः
समीचीनं समीचीनं भगिनि तत्र
परमाणुपरिमाणं मनांसि इति
समीचीनं समीचीनं भगिनि आकाशः कालः दिक् जीव ईश्वरः इति परमाणुपरिमाणं तत्र मनांसि मनसः परिमाणं
मध्यमपरिमाणं घट घटपटात्
उत्तमं भगिनि धन्यवादः अस्तु अस्तु तर्हि उत्तममस्ति अतः स्पष्टता जाता इति मन्ये अस्तु समीचीनं तर्हि अग्रे सरामः तत्र योगेन्द्रमहोदय अग्रे पठति वा तथा चेत् विभुत्वात्
तथा चेत् विभुत्वात् को लाभः अथवा किमर्थं जीवात्मा विभुः यतो हि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् तर्हि जीवात्मानि मध्यमपरिमाणत्वात् अनित्यत्वम् अनित्यत्वात् मोक्षः असम्भवः अपि च पूर्वजन्मनः धर्म अधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत् अतः जीवात्मा विभुः इति उच्यते
तावत्पर्यन्तं तावत्पर्यन्तं
तथा चेत् विभुत्वात् को लाभः अथवा किमर्थं विभुः जीवात्मा विभुः अस्ति
यदि ज्ञानं तत्र किमर्थं को लाभः अथवा किमर्थं प्रश्नः अवगम्यते वा
विभु किमर्थं
किन्तु प्रश्नः किमर्थं कृतं तथा चेत् इत्युक्ते केवलं शरीरे एकस्मिन् शरीरे एव तत्र ज्ञानम् उत्पद्यते चेत् तर्हि किमर्थं तत्र परिमाणं तत्र विभुः इति वदामः तत्र अथवा विभुद्रव्यम् इति जीवात्मा विभुद्रव्यम् इति किमर्थं वदामः
जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् जीवस्य परिमाणं तु शरीरे एकस्मिन् शरीरे एव अस्ति तर्हि जीवात्मानि मध्यमपरिमाणत्वात् अनित्यत्वात् मोक्षः असम्भव यदा एकस्मिन् एव शरीरे अस्ति अतः शरीरस्य नाशः भवति एवमेव जीवस्य नाशः भवति इति स्वीकुर्मः चेत् तत्र अनित्यत्वं भवति परन्तु अनित्यत्वात् मोक्षः असम्भवः
तत्र
इत्युक्ते अर्थः किं मोक्षः इत्युक्ते
महोदय योगेन्द्रमहोदय यदि तत्र परिमाणं शरीरपर्यन्तमेव भवति चेत् तर्हि तत्र मध्यमपरिमाणत्वं कुत्र भवति
मध्यमपरिमाणं जीवस्य प्रायः इति वदति
किन्तु जीवस्य मध्यमपरिमाणं भवति किन्तु मध्यमपरिमाणत्वं कुत्र भवति
जीवे एव भवति
जीवात्मनि नाम
जीवे एव भवति
जीवे भवति जीवात्मनि भवति तथैव तत्र जीवात्मा अनित्यः चेत् आत्मनि जीवे
परिमाणत्वात् अनित्यत्वं स्वीकार्यं मध्यमपरिमाणम्
नाम अनित्यत्वं कुत्र भवति कुत्र अस्ति जीवात्मनि तदा भवति
अनित्यत्वात् मोक्षः असम्भवः
खलु यदि अनित्यः चेत् तत्र मोक्षः कथं प्राप्नुयः
मोक्षः भवति तदा तु जीवस्य मुक्तिः भवति नाशः न भवति परन्तु मुक्तिः भवति
अतः तत्र
नित्यमस्ति सः आत्मनि सः आत्मनि परमात्मनि गच्छति इति
तत्र मोक्षः इति विषयः अत्र तस्मिन् विषये चर्चा न दत्ता महोदय एतावत्. अतः केवलं तत्र करपत्रे मोक्षः असम्भवः इति यावत् उक्तं तावदेव तत्र
अवगमनं.
अग्रे
अपि च पूर्वजन्मनः धर्म अधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत्.
तत्र न अभविष्यत्,
न अभविष्यत्.
तत्र अभविष्यत् इति अवगच्छति खलु महोदय, लकारः कः तत्र अभविष्यत्?
अभविष्यत् कः
अस्ति? लङ् लकारः,
लृङ्
लृङ्लकारः इति अस्ति,
लृङ्लकारः,
लृङ्लकारः. तत्र न भविष्यति, किन्तु यदि तादृशम् आसीत् चेत् किं भवति इति. तत्र भविष्यत्कालः अपि नास्ति, तादृशप्रयोगः. तत्र लृङ्लकारः इति, अतः तत्र यदि शरीरपर्यन्तमेव अभविष्यत् तर्हि सुखदुःखयोः कारणं न अभविष्यत्. अतः जीवात्मा विभुः इति उच्यते इति. समीचीनं. अतः तत्र जीवात्मा विभु, जीवात्मनः विभुत्वं स्वीकरणीयमस्ति, तत्र अन्या गतिः नास्ति, तत् स्वीकरणीयमेव अस्ति. अस्तु, समीचीनं महोदय, धन्यवादः. अग्रिमेव
धन्यवादः.
अतः जीवात्मा इति आरभ्य विमला भगिनी
अहं वदामि
कुतः महोदय.
अतः जीवात्मा
विभुः, जीवात्मा विभुः इत्युच्यते. पूर्ववाक्यं पठिष्यामः. जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तमेव अभविष्यत् तर्हि जीवात्मनि मध्यमपरिमाणवत्वात् अनित्यत्वम्, अनित्यत्वात् मोक्षः असम्भवः, अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं नाभविष्यत्. अतः जीवात्मा विभुः इत्युच्यते. विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि, तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः, किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे. किमर्थमिति चेत् तत्र विलक्षणसंयोगसम्बन्धः इत्युच्यते. जीवस्तु प्रतिशरीरं भिन्नः, विभुः नित्यश्च. अत्र जीवः कथं विभुः इति प्रश्नः अस्ति. यदि जीवः विभुः न स्यात्, यदि एक एव शरीरे अस्ति, शरीरनाशानन्तरं जीवः अपि आत्मा अपि नाश, जीवात्मास्य अपि नाशः सम्भवति.
जीवात्मनः
मध्यमपरिमाणः अस्ति इति कारणात्.
समीचीनम्.
अपि च यदि तत् तथा भवति तर्हि सुखदुःखयोः सुखदुःखयोः कारणात् किं कारणम् इति कारणमपि न भविष्यति इति
कारणं न वक्तुं शक्नुमः,
न वक्तुं शक्नुमः.
धर्म अधर्मः एव कारणम् इति अस्माभिः स्वीकृतं खलु, धर्मेण तत्र सुखमपि अधर्मेण दुःखम् इति. किन्तु तत्र
जीवात्मना धर्माधर्माणा धर्माधर्माः अपि नाश, तेषामपि नाशः भवति. जीवात्मना यदि जीवात्मा जीवात्मनस्य नाशः भवति, तेन सम्पादितं धर्मा अधर्मः तयोः अपि नाशः भवति. तर्हि अस्मिन् जीवने सुखदुःखानि कथम् उद्भवन्ति इति प्रश्नः अस्ति.
तदा कारणं न वक्तुं शक्नुमः, यतो हि तत्र कारणं नास्ति इदानीं.
हा, नास्ति. तेन कारणेव तत् जीवात्मा विभु इति उच्यते. विभु इत्युक्ते सर्वभूतद्रव्यसंयोगित्वम् अस्ति जीवात्मनि.
नाम तत्र जीवात्मनि किमस्ति?
मूर्तद्रव्यसंयोगित्वम् अस्ति,
सर्वमूर्तसंयोगित्वमस्ति. नाम तत्र संयोगः अस्ति, तत्र जीवात्मा अपि यद्यत् मूर्तद्रव्यमस्ति तयोः मध्ये संयोगः वर्तते. अतः तत्र संयोगित्वं, संयोगसम्बन्धः वर्तते इति कृत्वा संयोगित्वम् इति जीवात्मनि वर्तते
इत्युक्ते सर्वैः शरीरैः जीवात्मनः सम्बन्धः अस्ति परन्तु ज्ञानाश्रयत्वं सर्वैः शरीरैः नास्ति केवलं स्वस्य शरीरे एव तत् विलक्षणसंयोगसम्बन्धः इति उच्यते प्रतिशरीरे जीवः अस्ति सः भिन्नः परन्तु कुत्र अस्ति हा जीवात्मस्य शरीरे वयो भवति
नाम तत्र एतस्य आत्मनः एतत् शरीरम् इति चिन्तयामश्चेत् तत्र एषः आत्मा तस्य संयोगसम्बन्धः एतेन शरीरेण अस्ति एतेन शरीरेण अस्ति एतेन शरीरेण अपि अस्ति संयोगसम्बन्धः किन्तु
विभुत्वात्
किन्तु एषः सम्बन्धः तत्र विशिष्टसम्बन्धः चिन्तयामः यतोहि केवलम् अत्र एव अस्मिन् शरीरे एव तत्र ज्ञानम् उत्पद्यते नाम केवलम् अत्र एव तस्य ज्ञानस्य प्रत्यक्षं भवति इति चिन्तनम् अतः तत्र एषः सम्बन्धः विशिष्टसम्बन्धः एषः सम्बन्धः अस्य आत्मनः विशिष्टसम्बन्धः अतः विलक्षणसंयोगसम्बन्धः
किञ्चित्
भिन्नः अस्ति कथं भिन्नः न इति न उच्यते केवलं विशिष्टः इति एव
विशिष्टः अस्ति विलक्षणः अस्ति इति
एव एतावत् उक्तं
तेन कारणेन जीवः प्रतिशरीरं भिन्नः विभुः नित्यश्च इति उच्यते
अस्तु समीचीनं धन्यवादः भगिनि अस्तु अग्रे उषा भगिनि धन्यवादः भगिनि
अस्तु महोदय जीवात्मनः प्रत्यक्षं भवति मनसा परमात्मनः प्रत्यक्षं न जायते अतः अनुमानप्रमाणेन परमात्मा साधनीयः यथा पूर्वं प्रदर्शितम् अङ्कुरः जायते बीजात् यत्यत् उत्पद्यते तस्य कश्चन कर्ता भवति एव पुस्तकनिर्माणं करोति कश्चन घटनिर्माणं करोति कश्चन यत् उत्पद्यते तस्य नाम कार्यं यद्यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति कर्तारं विना कार्यं न उत्पद्यते अङ्कुरादिकम् अपि उत्पद्यते अङ्कुरादीनां कर्तृत्वम् अस्माकं न सम्भवति अतः सः कर्ता अन्यः एव भवेत् सः एव कर्ता ईश्वरः इत्युच्यते क्षिति अङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम् अस्तु महोदय जीवात्मनः प्रत्यक्षं भवति मनसा मम मनसा एव जीवात्मनः मनः जीवात्मनः ज्ञानं भवति परमात्मनः प्रत्यक्षं न जायते मम मनसि परमात्मनः प्रत्यक्षं न जायते अतः अनुमानप्रमाण अहम् ऊहां करोमि परमात्मा अनुमानेन इत्येव परमात्मनः परमात्मा एकः अपि नित्यः अपि इति अनुमानम्
तस्य अनुमानेन साधनीयः अस्ति परमात्मा यथा पूर्वं
प्रदर्शितं वयं पठितवन्तः अङ्कुरः जायते बीजात् वयं जानीमः बीजात् अङ्कुरः जायते यद्यत् उत्पद्यते तस्य कश्चन कृते कर्ता भवति एव वयं दृष्टवन्तः यद्यत् सामग्र्या अस्ति चेत् अपि कुलालः नास्ति चेत् घट उत्पत्ति नास्ति एव नास्ति भवेत् एव तदा एव पुस्तकनिर्माणम् अपि च घटनिर्माणं चेतनकर्ता अपेक्षते अङ्कुरः यद्यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति यत्र कार्यम् इति
एफेक्ट्
यत् उत्पद्यते यद् उत्पद्यते तस्य कार्यं भवति
तस्य नाम कार्यं यत् उत्पद्यते
तत् कार्यं कृते वयं अनुमानेन कर्तारं भवति इति वयं जानीमः कर्ता भवति इति जानीमः आम् आं महोदय कर्तारं विना कार्यं न उत्पद्यते अस्तु अङ्गुरादिकम् अपि उत्पद्यते अङ्गुरादीनां कर्तृत्वम् अस्माकं न सम्भवति अस्माभिः अङ्कुरादिकम् इति अङ्कुरादीनां कर्तृत्वं नाट् अस्माभिः वयं कृते वयं कृते अङ्कुरादीनां कर्तृत्वं नास्ति
नाम अस्माकम् अङ्कुरादीनां कर्तृत्वम् अस्माकं न सम्भवति नाम तत्र कुलालः अस्ति कुलालः घटं निर्माति कुलालः घटं निर्माति तर्हि कुलालः घटस्य कर्ता अस्ति खलु
आं महोदय
यदि कुलालः घटस्य कर्ता अस्ति तर्हि घटस्य कर्तृत्वं कुत्र अस्ति
कुलाले कृते
कुलाले अस्ति यतोहि सः एव कर्ता अस्ति कर्तृत्वं कुलाले अस्ति अथवा कुलालस्य कर्तृत्वम् अस्ति कुलालस्य तत्र कर्तृत्वम् अस्ति इति अपि वक्तुं शक्नुमः तत्र घटकर्तृत्वं घटस्य कृते कर्तृत्वं कुलालस्य कुलाले अस्ति अथवा कुलालस्य अस्ति इति तथैव अत्र अङ्कुराधीनां कर्तृत्वं नाम अङ्कुरकर्तृत्वम् अङ्कुरस्य कर्ता कः अस्ति इत्युक्ते वयं न स्मः इति एव वक्तुं
शक्नुमः
अतः एव तत्र कर्तृत्वम् अस्माकं नास्ति अस्माकं न सम्भवति
अतः महोदय एतद् करपत्रं कुत्र अस्ति
लिङ्क् प्रेषितम् अस्ति भगिनी तत्र ईमेल् मध्ये अस्ति ईमेल् मध्ये अस्ति
ईमेल्
तत्र
पूर्वे अस्ति
तत्र अनौन्स्मेण्ट् तत्र होम्वर्क् इत्यादि गृहपाठः इति अस्ति तत्र लिङ्क् अस्ति भगिनि
गृहपाठे अस्ति ओके पूर्वे न इदानीं न महोदय गो महोदय साङ्ख्य धन्यवादः
नमस्कारः भगिनि
नमस्कारः
अस्तु उषा भगिनि
अङ्कुरादिकम् अपि उत्पद्यते सो अङ्कुरादिकं कर्तृत्वम् अस्माकं न सम्भवति ईश्वरः इति अस्माकं
अङ्कुरादीनां कर्ता अन्यः कोऽपि भवेत्
अन्य कोऽपि भवेत् तत् कर्ता सः कर्ता ईश्वरः इति उच्यते
अपि अन्तिमवाक्यं तत्र
क्षिति अङ्कुरादिकं कर्तृ शिति अङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम् शिति शिति अङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घटः
इति प्रायशः तत्र एतस्य वाक्यस्य अवगमनं किञ्चित् एव भवेत् इति मन्ये नाम क्षिति अङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् अनुमानवाक्यं तत्र एतस्य वाक्यस्य अवगमनार्थं तत्र किञ्चित् अपेक्षितम् अस्ति नाम अनुमानं नाम किं तस्य स्वरूपं कथम् एतत् सर्वम् एतावत् वयं न पठितवन्तः तत्र ज्ञानस्य निरूपणे नाम प्रत्यक्षज्ञानं किम् अनुमानं ज्ञानं किम् इति तत्र केवलम् उदाहरणं वदामि नाम तत्र अनुमानवाक्यम् इति यदस्ति तत्र सर्वदा किं भवति तत्र
मौण्टेन् पर्वते अग्नि
पर्वतः धूमवान्
धूमः
तत्र पर्वतः वह्निमान् धूमात् यथा महानसं यथा महानसवत् इति तत्र घटवत् इति तत्र दृष्टान्तः हेतुः साध्यः पक्षः इति तत्र अंशाः भवन्ति तत्र अनुमानवाक्ये अपि तत्र व्याप्य व्यापकः एतत् सर्वम् अस्ति अग्रे गत्वा पठामः किन्तु एतत् अनुमानवाक्यं तत्र न्यायसिद्धान्तमुक्तावदि इति ग्रन्थमस्ति तत्र अपि एतदेव वाक्यमस्ति नाम तत्र ईश्वरस्य साधनाय तत्र एतद् वाक्यं तत्रापि तत्र अनुमानवाक्यं तेन एव तत्र ईश्वरस्य साधनं भवति अतः एव तत्र स्वरूपमोदेन एतत् अत्र स्थापितमस्ति किन्तु तस्य अवगमनं प्रायशः तत्र अग्रे अग्रे गत्वा तत्र एतादृशप्रयोगः प्रयोगस्य विवरणं कुर्मः अग्रे
तर्हि
समीचीनं तर्हि अग्रे सरामः तत्र प्रश्नः
प्रश्नः अस्ति पूर्वं जीवात्मनः किन्तु प्रत्यक्षं जीवात्मनः प्रत्यक्षं भवति मनसा इति उक्तं मम चिन्तनं मनसा सुखः अस्ति दुःखः अस्ति इति प्रत्यक्षं किन्तु अनुमानेन सुखस्य आश्रयः अस्ति दुःखस्य आश्रयः अस्ति इति अनुमानेन जीवात्मनः सिद्ध्यते इति मनः प्रत्यक्षेन जीवात्मनं जीवात्मा प्रदर्शति
समीचीनं नाम तत्र तर्हि तत्र प्रत्यक्षम् इति ज्ञाने तत्र किं चिन्तयामः तर्हि तत्र यदि तत्र वयं तत्र नीलरूपघटः अस्ति अथवा तत्र चक्षुषा तस्य प्रत्यक्षज्ञानं भवति खलु नीलघटः अस्ति अथवा तत्र तत्र प्रत्यक्षं ज्ञानं नाम इन्द्रियेण प्राप्तं ज्ञानं खलु
महोदय मनः आत्मगुणम् इति सूचयति खलु
हा इदानीं तत्र मनः अपि इन्द्रियम् अस्ति खलु
आं महोदय
हा तर्हि तत्र मनसा तत्र अग्रिमविषयः तदेव भवति मनः इति तत्र मनः तत्र मनसा तत्र आत्मनः प्रत्यक्षज्ञानं भवति इति उक्तं तर्हि अत्र
अस्तु महोदय
हा तत् नाम तत्र आत्मनः अपि प्रत्यक्षं भवति आत्मनि तत्र गुणाः ये वर्तन्ते तेषामपि सर्वेषामिति न किन्तु तत्र तेषामपि तत्र ज्ञानं तत्र मनसा प्रत्यक्षं भवति इति नाम सुखम् इति दुःखं तस्य ज्ञानं तत्र मनसा एव तत्र प्रत्यक्षं भवति इति
अस्तु सुखम् अपि पश्यति सुखस्य आश्रयम् अपि
अपि पश्यन्ति अस्तु सत्यं इति अस्तु समीचीनम् अस्तु अग्रे
महोदय मम एकः प्रश्नः अस्ति
वदतु महोदय
तत्र एव प्रश्नः अस्ति जीवात्मा प्रत्यक्षं मनसा भवति जीवात्मा तु यदा साक्षात् प्रत्यक्षं भवति इत्युक्ते साक्षात् भवति प्राय आत्मा तु जीवात्मा तु अतीन्द्रिय नास्ति इन्द्रियैः ज्ञातुं न शक्नुमः
अत्र महोदय तत्र मनसा इति तत्र वेदान्ते भिन्नः अस्ति अत्र प्रायशः तत्र भिन्नः अस्ति इति मन्ये महोदय बहिरिन्द्रियेण न ग्रहीतुं शक्नुमः तत्र वेदान्ते तत्र किं मनः अपि तत्र तत्र न केनापि तत्र न
यतीन्द्रिय अस्ति केनापि इन्द्रियेण ज्ञातुं न शक्नुमः
ग्रहीतुं समीचीनं महोदय किन्तु अत्र यदुक्तमस्ति नाम तत्र मनसा तत्र तस्य प्रत्यक्षं भवति इति न्यायशास्त्रे स्वीकृतम् इति मन्ये महोदय
अस्तु अत्र अङ्कुरात् बीजात् अङ्कुरः भवति तत्र सः एव तस्य कर्ता ईश्वरः अस्ति तस्य कर्ता ईश्वरः अस्ति वा अङ्कुरे यः जीवः अस्ति सः कर्ता अस्ति
न न नाम तत्र वयं पूर्वं पठितवन्तः खलु महोदय एतत् केवलं दृष्टान्तं नाम उदाहरणं नाम यद्यत् भवति तत्र सूर्यः चन्द्रः अपि तत्र सरित् नदी एतेषां तत्र सर्वं तत्र अनित्यः इति
ईश्वरेण कृतं
हा अतः तत्र सर्वेषां कृते तत्र कोऽपि चेतनः भवेत् इति
चेतना भवेत् सः ईश्वरः
सामग्री अपि भवेत् सामग्री अपि भवेत् चेतनः कोऽपि अपि भवेत्
अस्तु इत्युक्ते वयम् अस्मादीनां सर्वे अल्पज्ञाः अस्ति बीजात् अङ्कुरम् उत्पादितुं वयं न शक्नुमः परन्तु अतः ईश्वरः करोति एतत् कार्यम्
इति समीचीनम्
अस्तु तदा अस्मादीनाम् अस्मादीनां शरीरे यः जीवः अस्ति सः कर्ता अस्ति अस्मादीनां शरीरे यः जीवः अस्ति वयं किमपि कार्यं कुर्मः तस्य कर्ता जीवः अस्ति
तत् यदि एतत् स्वीकुर्मः महोदय तत्र किं भवति तत्र अनेके जीवात्मानः सन्ति खलु तर्हि कः किं कार्यं करोति प्रत्येकजीवात्मा किं किं कार्यं करोति किमर्थम् एषः जीवात्मा एव एतत् कार्यं करोति एतत् तदा कदा करोति कदा न करोति इति अनेके प्रश्नाः आगच्छन्ति खलु अतः तत्र सर्वे तत्र न्यायशास्त्रे लाघवम् इष्टमस्ति महोदय नाम यावत् यावत् पर्यन्तं नाम तत्र एतदेव तत्र पाश्चिमशास्त्रे अपि तत्र ओकाम्स् रेजर् इति वदन्ति नाम तत्र सारल्यं सिम्प्लिफैड् यावत् भवेत् तावत् नाम तत्र ऐन्स्टैन् उक्तवान् तत्र यु शुड् सिम्प्लि हाव् इट् एस् सिम्पल् एस् पासिबल् बट् नो सिम्प्लर् इति अतः तत्र यावत् सारल्यं कर्तुं शक्नुमः तावत् स्वीकुर्मः अतः तत्र यद् आवश्यकमस्ति केवलं तदेव तिष्ठति अनावश्यकचिन्तनं मास्तु इति गौरवचिन्तनमपि मास्तु इति अतः तत्र एकस्य ईश्वरस्य परमात्मनः स्वीकारे सारल्यं भवति सः कर्ता सः एकः एव कर्ता इति अपि अग्रे गत्वा किं भवति सः सर्वेषां तत्र कार्याणां कर्ता अस्ति सः अपि कारणमस्ति यदि अद्य अहं किमपि तत्र पाठं करोमि अहं कर्ता अस्मि किन्तु अहं लघुकर्ता अस्मि किन्तु कार्यम् इति कृत्वा तत्र ईश्वरस्य परमात्मनः अपि तस्य सः अपि कर्ता अस्ति अस्य पाठस्य तस्य नाम तस्य अपि तत्र किं कर्तृत्वम् अस्ति तत्र ज्ञानम् अस्ति इच्छा अस्ति प्रयत्नः अस्ति सर्वम् अस्ति नाम तत्र सः अपि कर्ता अस्ति पाठस्य अतः तत्र सः साधारणकारणं सर्वेषां कार्यं प्रति अग्रे गत्वा वयं पश्यामः सर्वेषां कार्याणां प्रति ईश्वरस्य ज्ञानम् इच्छा प्रयत्नः साधारणकारणानि तदनन्तरं घटस्य निर्माणे अपि तत्र कुलालः एव कारणम् इति अस्ति तदपि अस्ति किन्तु असाधारणकारणम् अस्ति ईश्वरः ईश्वरस्य ज्ञानम् इच्छा प्रयत्नः साधारणकारणानि दिक् अपि कारणम् इति एतत् सर्वं तत्र साधारणकारणानि भवन्ति तदनन्तरं विशिष्टकारणानि यानि इति तत्र परिशीलनं भवति
अस्तु अस्तु
अतः तत्र सारल्यार्थम् एकः एव कर्ता भवेत् इति अस्तु समीचीनम् अस्तु तत्र हा समीचीनं महोदय अस्तु अग्रे शोभा भगिनी अग्रे
आं महोदय जीवात्मनः किन्तु प्रत्यक्षं जायते प्रत्यक्षं द्विविधं बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षं च बाह्यप्रत्यक्षं पुनः पञ्चविधं चाक्षुषं रासनं घ्राणजं श्रावणं त्वाचञ्च आन्तरप्रत्यक्षम् एकविधं मानसप्रत्यक्षं मनसा जायमानं प्रत्यक्षं मानसम् अहं जानामि अहम् इच्छामि अहं खादामि अहम् अहम् इति भवति किल तदेव प्रत्यक्षम् अहम् इति प्रतीतिः भवति अहम् इति पदस्य अर्थः आत्मा इदं मानसप्रत्यक्षम् मनः अपि इन्द्रियं मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः मनसा आत्मनः प्रत्यक्षम् आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षं ज्ञानस्य आम् महोदय बहु किमपि अस्ति जीवात्मनः किन्तु प्रत्यक्षं जायते इत्युक्ते तत्र परमात्मा प्रत्यक्षं न जायते इति दृष्टवन्तः जीवात्मनः तु प्रत्यक्षं जायते तत्र षष्टि जीवात्मनः प्रत्यक्षम् इति ज्ञानं जायते अपि च तत् प्रत्यक्षं द्विविधम् अस्ति बाह्यप्रत्यक्षम् अपि आन्तरप्रत्यक्षम् इति अस्ति अन्तः इति आन्तर तत्र प्रत्यक्षं बाह्यप्रत्यक्षं पुनः पञ्चविधं भवति
नाम प्रत्यक्षं ज्ञानं प्रत्यक्षं नाम ज्ञानं प्रत्यक्षम् इत्युक्ते एकविधं ज्ञानं इन्द्रियेण प्राप्तं लब्धं ज्ञानं
ज्ञानम् इति तत्र तत्र वायोः स्पर्शः एव प्रत्यक्षः इति ज्ञातवन्तः पूर्वं
प्रत्यक्षं नाम बाह्येन्द्रियेण
ज्ञायते इति बाह्येन्द्रियेण ज्ञायते इति बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षम् इत्युक्ते तत्र मनसा ज्ञायते
इति
आन्तरप्रत्यक्षम्
इति
तयोः बाह्यप्रत्यक्षम् इत्यस्य इदानीं पुनः पञ्च विधैः विभागं कृतमस्ति चाक्षुषम् इति तत्र चक्षुषा चाक्षुषं रासनम् इति
चक्षुषा लब्धं ज्ञानं
चाक्षुषं हा रासनम् इत्युक्ते तत्र रसनया लब्धं ज्ञानं रासनं अपि च घ्राणेन्द्रियैः लब्धं ज्ञानं घ्राणजम् अपि च श्रवणेन्द्रियैः लब्धं ज्ञानं श्रावणम् अपि च त्वचा लब्धं ज्ञानं त्वाच त्वाचः च इति त्वाचं च अपि च आन्तरप्रत्यक्षम् समूहः इति कृत्वा हा इत्युक्ते तत्र पञ्चविधं तेषां समूहः इदानीम् आन्तरप्रत्यक्षम् एकविधम् एव इत्युक्ते मानस प्रत्यक्षं तत्र मनसेन्द्रियेण प्रत्यक्षं भवति यत् तत् आन्तरप्रत्यक्षम् इति ज्ञानं भवति मनसा ज्ञायते इति आन्तरप्रत्यक्षम् इति तत्तु एकविधम् एव मानसप्रत्यक्षम् इति
एकमेव
एकमेव मनः
नाम बाह्येन्द्रियाणि पञ्च सन्ति
पञ्च इन्द्रियाणि पञ्चेन्द्रियाणि सन्ति
तत्र
अतः
तत्र आन्तर इन्द्रियम् अथवा तत्तु एकमेव मनः
एकमेव मनः एव अतः एक एकविधम् एव तत् मानसप्रत्यक्षम् इति उच्यते मनसा ज्ञायते इति मानसप्रत्यक्षं मनसा जायमानं प्रत्यक्षं मानसम् इति उच्यते इत्युक्ते अहं जानामि अहम् इच्छामि अहं खादामि इति तत्र सर्वत्र यदा किमपि मया कृतम् इति वदामः अहम् इति उपयुज्य वदामः तत्र अहम् अहम् इति यत् रेफरेन्स् किं तत्र भवति प्रतीतिः इति अहम् अहम् इति ज्ञानं भवति यस्मिन् कस्मिन्नपि कार्ये तदेव तदेव प्रत्यक्षम् इति इत्युक्ते ज्ञानम्
इति
अहमिति पदस्य अर्थः एव आत्मा इति भवति तत्र हा तत्र भवत् अहम् इति प्रतीतिः भवति तत्र अहम् इति पदस्य अर्थः आत्मा इति उक्तं तत्र तर्हि तत्र यदा किमपि
अहम् अहं जानामि इति तत्र किं भवति अहं जानामि इति तत्र इति ज्ञानम् ज्ञानस्य स्वरूपमस्ति अहम् अहं जानामि अथवा अहम् इच्छामि इति अस्ति चेत् तत्र ज्ञानम् अस्ति ज्ञानस्य विषयः अस्ति अहम्
अहमेव ज्ञानस्य विषयः अस्ति अहम् इति
तर्हि तत्र विषयः अस्ति तत्र अहम् अहम् इत्युक्ते कः तत्र आत्मा एव जीवात्मा एव
तत्र पुनः अहं इच्छामि हा इच्छामि इति तत्रापि अहम् इत्यनेन आत्मा एव तथा एव तत्र सर्वत्र अपि च तत्र अहं तत्र भवान् उक्तवान् अहं जानामि तत्र ज्ञानस्य विषयः अहम् इति भवति इति खलु महोदय
तत्र सर्वत्र
सर्वत्र अहम् इच्छामि तत्र सर्वत्र
सर्वत्र अहमेव तत्र विषयः
विषयः अपि च विषयः किन्तु तत्र अहम् इति अर्थः आत्मा इति भवति तर्हि तत्र आत्मा एव विषयः ज्ञानस्य विषयः
आत्मा इति इदमेव मानसप्रत्यक्षम्
मानसप्रत्यक्षम् इति हा इदमेव इद मानसप्रत्यक्षम् इति उच्यते अपि च मनः अपि इन्द्रियं मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः इत्युक्ते तत्र इदानीं तत्र पूर्वं पठितवन्तः कथं आत्मनः जीवात्मे जीवात्मनि कथं प्रत्यक्षं भवति इति किल महोदय तर्हि तत्र इन्द्रिय मनः इति इन्द्रियम् इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः इति यत् इत्युक्ते तत्र कथम् इत्युक्ते तत्र अहम् इति यदा तत्र किं भावना भवति अथवा अहम् इति प्रतीतिः भवति कस्यापि कार्यं कस्मिन्नपि कार्ये
खादामि अहं खादामि इति ज्ञानम् अस्माकं भवति
भवति
तर्हि
तदेव तत्र तस्य अर्थः एव आत्मा अतः मनसा मानसप्रत्यक्षं भवति इत्युक्ते तस्य इदानीं तत्र उत्तरं प्राप्तवन्तः इति मन्ये
तत्र
जीवात्मनः प्रत्यक्षं कथं भवति इति
जीवात्मनः प्रत्यक्षज्ञानं मनसा भवति इति तत्र जीवात्मनः मानसप्रत्यक्षं
प्रत्यक्षम् इति
भवति इति समीचीनं भगिनि हा धन्यवादः
धन्यवादः महोदय
हा अस्तु तत्र एतावत् कोऽपि प्रश्नः अस्तु नो चेत् अग्रे सरामः तर्हि तत्र अनीता भगिनी अग्रे पठति वा
ज्ञानस्य तथा आरम्भं करोमि न
तत्र मनसा आत्मनः इति
मनसा आत्मनः प्रत्यक्षम् आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम् ज्ञानस्य प्रत्यक्षम् इच्छायाः प्रत्यक्षं दुःखस्य प्रत्यक्षम् एषु नवसु विशिष्टगुणेषु षण्णां प्रत्यक्षं भवति मनः इति इन्द्रियेण त्रयः गुणाः अतीन्द्रियाः धर्मः अधर्मः संस्कारः च एते त्रयः विशिष्टगुणाः मनसा न गृह्यन्ते घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण मनसा यद् ज्ञानं जायते तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छासुखदुःखादयः गुणाः जीवात्मा स्वयं च अत्र मनः अपि इन्द्रियम् मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः मन इति इन्द्रियेण तत् वयं दृष्टवन्तः बाह्यप्रत्यक्षम् अन्तर्प्रत्यक्षं तत्र मनः अन्तर्प्रत्यक्षम् इति रूपेण मनः इति इन्द्रियेण आत्मनः ज्ञानं प्रत्यक्षं जायते
हा प्रत्यक्षं ज्ञानं जायते समीचीनं
जायते आत्मनः ज्ञानम्
आत्मनः ज्ञानं जायते
मनसा आत्मनः प्रत्यक्षं मनसा आत्मनः ज्ञानं प्रत्यक्षं जायते आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम् अत्र आत्मनि इति अधिकरणरूपेण आगच्छति आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षं ज्ञानं जायते अत्रापि आत्मनि विद्यानां ज्ञानं विद्यानां ज्ञानादीनां च प्रत्यक्षं ज्ञानं जायते
सत्यं सत्यं नाम विज्ञानं नाम ये तत्र यत् यत् तत्र ज्ञानाधीनां तत्र गुणाः सन्ति तेषामपि विद्यमानः तत्र वर्तते तत्र वर्तन्ते ये गुणाः वर्तन्ते तेषामपि प्रत्यक्षं ज्ञानं भवति अतः तत्र आत्मनः प्रत्यक्षमपि भवति मनसा आत्मनि विद्यमानाः गुणानामपि प्रत्यक्षं भवति सर्वेषां गुणानां न अग्रे विवरणं दत्तमस्ति केषाम् इति
आत्मनि विद्यमानां गुणानां प्रत्यक्षं ज्ञानं जायते ज्ञानस्य प्रत्यक्षम् इच्छायाः प्रत्यक्षं दुःखस्य प्रत्यक्षम्
नाम यथा तत्र पूर्वं वाक्यम् आसीत् खलु अहं जानामि अहम् इच्छामि अहं खादामि तादृशं तत्र ज्ञानस्य अहं जानामि ज्ञानस्य प्रत्यक्षम् अहम् इच्छामि इच्छायाः प्रत्यक्षम् अहं दुःखी अस्मि दुःखस्य प्रत्यक्षम्
विशिष्टगुणेषु क्षणां प्रत्यक्षं भवति मनः इति इन्द्रियेण अत्र षण्णां गुणानां प्रत्यक्षं ज्ञानं भवति मन इति इन्द्रियेण इति दत्तमस्ति
नाम मनसा एतेषां प्रत्यक्षं ज्ञानं षण्णां गुणानां
भवति अत्र नवगुणाः यद् वयं दृष्टवन्तः बुद्धि सुखम् इच्छा द्वेषप्रयत्नः धर्मरूपी पुण्यम् अधर्मरूपी पापं भावनाख्य संस्कारः एषु नवसु विशिष्टगुणेषु षण्णां प्रत्यक्षं ज्ञानं भवति मनसा भवति मनः इति इन्द्रियेण तेषां प्रत्यक्षं ज्ञानं भवति त्रयः गुणाः अतीन्द्रियाः इति दत्तमस्ति त्रयः गुणाः के धर्मः अस्ति अधर्मः अस्ति संस्कारः अस्ति धर्म इति पुण्यम् इति वयं वदामः अधर्मः पापम् इति वदामः भावनाख्यसंस्कारः त्रयाणां गुणानां त्रयाणां विशिष्टगुणानां ज्ञानं प्रत्यक्षज्ञानं मनसा न गृह्यन्ते इति दत्तमस्ति ते गुणाः अतीन्द्रियाः इति दत्तमस्ति
इति एतद् वयं पूर्वं पठितवन्तः खलु तत्र तेषां तत्र वयं व्यापाररूपेण एव तत्र तेषां कल्पनां कर्तुं शक्नुमः इति खलु व्यापारत्वेन एव तत्र नाम व्यापारः तत्र इति तस्य विवरणं सर्वं पूर्वं दत्तम् आसीत् खलु तत्र अतः एव तत्र तेषां प्रत्यक्षं नास्ति किन्तु व्यापारत्वेन अनुमानम्
व्यापाररूपत्वेन कल्पिताः सन्ति इति
व्यापारं नाम तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति एतत् सर्वं वयं पठितवन्तः खलु अतः तत्र पुण्यम् इति तत्र सुखं भवति सुखस्य कारणम् अस्ति पूर्वजन्मनि कृतं किमपि किन्तु तत्र व्यापारः अपि भवेत् तद् सः एव धर्मः अपि अधर्मः इति अतः तत्र एतत् सर्वं वयं पठितवन्तः तत्र मनसा एतेषां तत्र ग्रहणं न भवति
मनसा ते न गृह्यन्ते इति वयं दृष्टवन्तः घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण चक्षुरिन्द्रियेण इन्द्रियेण वयं प्रत्यक्षज्ञानं प्राप्नुमः घटपटादीनां चक्षुषा तस्य ज्ञानं भवति इति प्रत्यक्षज्ञानं भवति मनसा यत् ज्ञानं जायते तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छा सुखदुःखादयः गुणाः तत् मनेन्द्रियेण मनसा इति इन्द्रियेण यत् ज्ञानम् अस्माकं मनसि उद्भवति यत् ज्ञानं जायते तस्य ज्ञानस्य विषयः कः विषयः आत्मनि विद्यमानाः इच्छा सुखदुःखादयः गुणाः अस्माकं आत्मनि विद्यमानाः ये गुणाः सन्ति इच्छा वा सुखः वा दुःखः तस्य विषयः आत्मनि ये विद्यमानाः गुणाः अस्ति तस्य ज्ञानस्य विषयः जीवात्मा स्वयम् एव
न न न न
मनसा ज्ञानं जायते
तस्य ज्ञानस्य तत्र ज्ञानमस्ति चेत् ज्ञानस्य विषयः अस्ति खलु
मनेन्द्रियेण यद् ज्ञानं जायते
तत्र मनसा किमपि ज्ञानं गृहीतमस्ति इदानीं तद् ज्ञानमस्ति चेत् तत्र विषयः भवेत् खलु
आम् आम्
विषयः कः इत्युक्ते तत्र इच्छा सुख दुःखादयः गुणाः विषयः इति भवन्ति अथवा स्वयमपि विषयः भवति नाम तत्र अहं जीवात्मा अपि तत्र ज्ञानस्य विषयः भवति यथा तत्र अहं जानामि इति ज्ञाने तत्र अहम् इति अपि विषयः जानामि इति अपि विषयः खलु
आम्
अहम् इच्छामि इति तत्र अहम् इति अपि विषयः इच्छा इति अपि विषयः अतः तत्र इच्छा इति गुणः अपि विषयः भवति मनसा यत् ज्ञानं जायते तस्य विषयः इच्छा अपि भवितुमर्हति अपि साक्षात् जीवात्मा अपि विषयः भवितुमर्हति
यथा इच्छाविषयः सुखविषयः दुःखविषयः तथैव एते सर्वे ज्ञानस्य विषयः तथैव जीवात्मा अपि ज्ञानस्य विषयः एव भवति
यत् ज्ञानं मनसेन्द्रियेण प्राप्तमस्ति यत् मनसेन्द्रियेण प्राप्तमस्ति तत्र विषयः इच्छा सुख दुःख इत्यादयः भवितुम् अर्हन्ति अपि जीवात्मा स्वयं नाम तेषाम् आश्रयः एते गुणाः सन्ति तेषाम् आश्रयः अपि तस्य सः अपि विषयः भवति अत्र ज्ञानं यत् ज्ञानं मनसा प्राप्तम् अस्ति इति अस्ति अतः तत्र जीवात्मा तत्र जीवात्मनः प्रत्यक्षं ज्ञानं भवति मनसेन्द्रियेण अपि जीवात्मनि विद्यमानाः नवगुणाः सन्ति तेषु षण् प्रत्यक्षज्ञानं मनसा भवति अतः तत्र वयं तत्र पूर्वं दृष्टवन्तः तत्र यत् जीवात्मा अस्ति अपि तस्य शरीरम् इति वदामः तत्र एतस्य शरीरस्य मनः अपि अस्ति तेन मनसा आत्मनः जीवात्मनः प्रत्यक्षं भवति अपि तत्र तस्मिन् आत्मनि वर्तमानाः षण्णां ज्ञानमपि भवति अतः तत्र एषः सम्बन्धः विशिष्टः यतोहि तत्र मनः अपि अस्ति मनसा तत्र आत्मनः अपि तत्र षण्णां गुणानामपि ज्ञानम् उत्पद्यते अतः एव तत्र एषः संयोगसम्बन्धः विशिष्टः अस्ति विलक्षणः अस्ति अत्रापि संयोगसम्बन्धः अस्ति अत्रापि संयोगसम्बन्धः अस्ति एते जीवात्मानः एतानि शरीराणि किन्तु एतस्य ज्ञानम् अत्र न भवति यद्यपि संयोगसम्बन्धः अस्ति केवलं यत्र मनः अस्ति तत्रैव भवति अतः एषः सम्बन्धः संयोगसम्बन्धः विलक्षणः इति भवति
स्वस्य शरीरेण सह यत् सम्बन्धः भवति तत्
विशिष्टसम्बन्धः अस्ति तत्र एव ज्ञानम् उत्पद्यते यतोहि तत्र एव मनः अस्ति मनस ज्ञानस्य प्रत्यक्षं भवति अतः अत्र शरीरमस्ति मनः अपि अस्ति मनस एतस्य आत्मनः स्वयं ज्ञानम् अपि आत्मनि विद्यमानाः नवगुणाः ये सन्ति तेषु षण्णाम् अपि प्रत्यक्षज्ञानं भवति मनसा अस्मिन् शरीरे इति अस्ति अस्तु समीचीनम् अतः एतावत् तत्र आत्मा इति विषये तत्र करपत्रे यद्दत्तमस्ति वयं पठितवन्तः अग्रिमे वर्गे तत्र मनः इति विषये तत्र वयं पठामः तदनन्तरं तत्र विद्याधरी पुस्तके मनः मनसः लक्षणवाक्यं सर्वं पठित्वा मनसः निरूपणम् इति कृत्वा यदि वयं मनसः निरूपणं कुर्मः तर्हि किं भवति वयं द्रव्याणां लक्षणानां तत्र परिशीलनं कृतवन्तः तदा तदनन्तरम् अग्रे तत्र भवति गुणानां निरूपणं, द्रव्याणां निरूपणानन्तरं गुणानां निरूपणम् आरप्स्यते तदा. अतः तत्र केवलम् इदानीं तत्र मनसः निरूपणम् अवशिष्टम् अस्ति. अस्तु, तर्हि बहु समीचीनमस्ति. कोऽपि प्रश्नः एतावत्? नो चेत् तर्हि विरमाम, अग्रिमे वर्गे मिलामः. समीचीनमस्ति, धन्यवादः, नमस्कारः.
धन्यवादः.